इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिझाः। अथ वार्ताः। अद्य नवदिल्ल्यां विज्ञानभवने राष्ट्रपति द्रौपदी मुर्मुः अध्यापकेभ्यः राष्ट्रियपुरस्कारान् प्रदास्यति। अयं गौरवपूर्णः वार्षिकपुरस्कारः तेषां विशिष्टानाम् अध्यापकानां समर्पणं निष्ठां च द्योतयति, ये शिक्षायाः गुणवत्तां वर्धितवन्तः, ये च स्वविद्यार्थिनां जीवनम् उत्तमतया प्रभावितवन्तः। प्रधानमन्त्री श्रीनरेन्द्रमोदी ह्यः अध्यापकैः सह संवादं कृतवान्। तस्मिन्नवसरे मोदी अवोचत् यत् भारतीयसमाजे अध्यापकानां प्रति स्वाभाविकः सम्मानो विद्यते, ते राष्ट्रनिर्माणे महत्वपूर्णां भूमिकां निर्वहन्ति। प्रधानमन्त्री सर्वेषां राष्ट्रिय अध्यापक पुरस्कारेण सम्मानितानां कृते अभिनन्दनानि वचांसि प्रदत्तवान्। सः अवोचत् यत् अध्यापकाः केवलं वर्तमानं न निर्मान्ति, अपि तु राष्ट्रस्य भविष्यमपि आकारयन्ति, अतः तेषां भूमिका राष्ट्रसेवायाः परमं रूपं मन्यते। अद्य सर्वत्र केरलसमुदायेन तिरुओण्णम् महोत्सवः सोल्लासेन सोत्साहेन आचर्यते। अयम् उत्सवः केरलस्य महत्वपूर्णेषु उत्सवेषु भवति। गतदिनेभ्यः राज्यं समग्रम् उत्सवभावेन रम्यं जातम्। ओणम् धर्मनिष्ठत महाबली महाराजस्य पुनरागमनस्मरणरूपेण आचर्यते, यः न्यायप्रियः दयालुः अतीव प्रियः च आसीत्। समग्रे केरलराज्ये शासकीयसंस्थाः सांस्कृतिकसङ्घटनानि स्थानीयसमुदायाः च नानाविधान् सांस्कृतिककार्यक्रमान् आयोजयन्ति। सबरीमाला गुरुवायूर् तिक्कुरकडादि प्रमुखमन्दिरेषु अद्य विशिष्टपूजाः सम्पत्स्यन्ते। राष्ट्रपति द्रौपदी मुर्मुः ओणम् उत्सवावसरे सर्वेभ्यः विशेषतया केरलजनानां प्रति शुभकामनाः अयच्छत्। स्वसन्देशे सा अवोचत् यत् ओणम् केरलस्य समृद्ध सांस्कृतिक परम्परायाः उदाहरण स्वरूपं वर्तते। प्रधानमन्त्री श्रीनरेन्द्रमोदी अवोचत् यत् तस्य सहकारेण वस्तु सेवाकरस्य क्षेत्रे नूतन संशोधनानि विहितानि। ह्यः सायं नवदिल्ल्यां राष्ट्रिय पुरस्कार विजेतृभिः शिक्षकैः सह संवादे सः उक्तवान् यत् GST 2.0 राष्ट्राय द्विगुणं साहाय्यं विकासं प्रयच्छति। इदानीं वस्तु सेवाकरः अतिशयेन सुलभो भविष्यति।
मीडिया के कुछ साथी इसको GST 2.0 के रूप में कह रहे हैं, लेकिन असल में ये देश के लिए सपोर्ट और ग्रोथ की डबल डोज है। डबल डोज यानी एक तरफ देश के सामान्य परिवार की बचत और दूसरी तरफ देश की अर्थव्यवस्था को नई मजबूती। नए GST रिफॉर्म से देश के हर परिवार को बहुत बड़ा फायदा होगा।
श्री मोदी अब्रवीत यत् मध्यम वर्गः नवमध्यमवर्गः निर्धनाः युवावर्गः नारीणां च समुदायः एभ्यः संशोधनेभ्यः लाभं प्राप्स्यन्ति। प्रधानमन्त्री अवोचत् यत् समयोचित परिवर्तनं विना वैश्विक परिस्थितौ भारतं स्वसमीचीनं स्थानं प्राप्तुं न शक्नोति। प्रधानमन्त्री श्रीनरेन्द्रमोदी सिंगापुरस्य प्रधानमन्त्रिणा लॉरेंस वोंग इत्यनेन सह वार्तां कृतवान्। भारतस्य सिंगापुरस्य च मध्ये पञ्च सन्धिपत्राणि हस्ताक्षरितानि। भारतीय ऋतु विज्ञान विभागेन उद्घोषितं यत् आगामिषु दिवसेषु गुजरातस्य कतिपय स्थलेषु अतिवृष्टिः भविष्यति। महाराष्ट्रे मध्यप्रदेशे राजस्थाने सौराष्ट्रे कच्छे कोंकण गोवायां च अद्यारभ्य प्रबल वृष्टिः भविष्यति। एवमेव दिल्ल्यां हरियाणायां चण्डीगढे पश्चिमबंगे उत्तराखण्डे उत्तरपूर्व प्रदेशेषु च एतादृशी एव स्थितिः भविष्यति। जम्मू कश्मीरे स्थानीय ऋतु विज्ञान विभागेन प्रकटितं यत् मेघाच्छादनं तत्र भविष्यति इति वार्ताः।